अस्तु, आरम्भं करोतु महोदय।
गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। सरस्वती नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा।
पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम्। धन्यवादः महोदय। सर्वे अभ्यासं कृतवन्तः वा? गृहपाठम् अभ्यासं, प्रश्नाः सन्ति वा? संशयः, प्रश्नाः? क्लियर्? आल् क्लियर्? सर्वैः अवगतम् इति मन्ये। So I hope that all of you understood whatever you have learnt so far. Asti, nasti, atra, tatra, bhavan, bhavati, aham. Punah ekavaram abhyasam punasmaranam krutva agre gachamah. Ekam nimisham. अस्तु, अत्र एकं लघु सम्भाषणम् अस्ति। इदानीं शोभनादित्यमहोदय अपि च जयन्ती लक्ष्मी भगिनी कृपया पठतु। शोभनादित्यमहोदय, आदित्यमहोदय, हरि इत्यस्य पठतु, वचनं पठतु, अनन्तरं जयन्ती भगिनी मालायाः वचनं पठतु। अहम् आङ्ग्लभाषेण लिखितवती अस्मि अत्र, तस्य अनुवादं कृत्वा वदतु।
अहं हरि,
हरि सल्यूटेशन्, सल्यूटेशन्स् हरि ओम् अथवा नमो नमः, नमस्ते, किमपि वक्तुं शक्यते।
हरि नमस्ते, अहं हरि, भवतः किम्?
अन्याः सर्वे कृपया म्यूट् मध्ये तिष्ठन्तु, कृपया, अ लाट् आफ् डिस्टर्बेन्स्, इट्स् नाट् क्लियर्। अस्तु, पुनः एकवारं पठतु महोदय।
नमस्ते, अहं हरि, भवती किं, भवती का?
अहं माला, अहं विद्यार्थिका, अध्यापिका, भवान् का? भवान् कः?
उत्तमं भगिनि, भवान् कः?
अहं वैद्यः।
अत्र
दिस् इस् दिस् सो दिस् इस् अ बाय्, हौ विल् यू से
दिस्? अहं
एषः,
ओके, एषः अहं हस्बेण्ड्, पति, पतिः।
मै, वाट् इस् द पोसेसिव् फार्म्?
अहं
न, अहम् इस् ऐ, अहम् इस् ऐ, नाट् मै। सो हौ डु यु से मै नेम् इस् जयन्ती? हौ डु यु से मै नेम् इस् जयन्ती विद् द वेरि फस्ट् क्लास् दट् इस् वाट् वि लर्न्?
भवत्याः, भवत्याः,
न न न, मै,
मम, मम, मम नाम, मम पति, मम पतिः, एषः मम पतिः,
एषः मम पतिः, उत्तमं।
भवत्या भवत्या नाम
न न इदानीं माला इस् इण्ट्रोड्यूसिङ्ग् हर् हस्बेण्ड् सो हरि इस् गोयिङ्ग् टु आस्क् वाट् इस् हिस् नेम्
भवान् नाम किं
भवान् नाम न वाट् इस् युवर् युवर् पुल्लिङ्गे युवर् वाट् इस् what is it for you are in sanskritam pullinge that's the very first lesson we learned you are mine what is your
mama
name
mama
naam mama na mama is my you are is
baba भवतः
पुल्लिङ्गे भवतः स्त्रीलिङ्गे भवत्याः इदानीं माला इस् इण्ट्रोड्यूसिङ्ग् हर् हस्बेण्ड् सो हरि इस् आस्किङ्ग् हिस् नेम् भवतः नाम किम् अनन्तरं वाट् आर् यू
भवान् कः
भवान् कः उत्तमम् इदानीम् अन्य कोऽपि रमेश महोदय शिवस्य वचनं पठतु कृपया
मम नाम शिवा अहम् अध्यापकः
इस् दिस् युवर् डाटर् daughter is putri
putri
your is here he is talking to hari so he is asking he is addressing a man so what will be your
esa bhavat bhavatyah putri
bhavatah
bhavatah
esa भवतः पुत्री किम् अथवा एषा भवतः पुत्री वा बिकास् इट् इस् दिस् सो हि इस् नाट् श्युर् वेदर् इट् इस् हरीस् डाटर् सो हि जस्ट् वाण्ट्स् टु मेक् श्युर् दट् इट् वेदर् इट् इस् हिस् डाटर् सो एषा दिस् सो दिस् फार् दिस् एषा बिकास् हि इस् टाकिङ्ग् अबौट् सम् फीमेल् सम् लेडी सो एषा एषा भवतः पुत्री वा दट् इस् हौ वि हेव् टु फ्रेम् द क्वश्चन् इदानीं हरि महोदय वदतु कः पठति इदानीम् एकं निमिषं जयरामन् महोदय हरि जयरामन् महोदय रीड् हरीस् वचनं अण्ड् देन् माला भगिनी रम्या भगिनी कृपया मालायाः वचनं पठतु जयरामन् महोदय अस्ति वा रम्या भगिनी अस्ति वा रम्या भगिनी द सुकन्या भगिनी
हरि ओम्
सुकन्या भगिनी एकं निमिषं सुकन्या भगिनी मालायाः वचनं पठतु पुनः शोभनादित्य महोदय हरि हरेः वचनं पठतु महोदय
आम् एषः मम पुत्री
शी सो किमर्थं पुनः एकवारं वदतु किम् उक्तवान् भवान्
आम् सः आम् सा मम पुत्री
एषा यस् दिस् इस् मै डाटर् एषा मम पुत्री अथवा सा मम पुत्री. अस्तु, इदानीं सुकन्या भगिनी पठतु मालायाः वचनं.
भवतः पत्नी कुत्र
कुत्र अस्ति
कुत्र अस्ति
इस् इस् अस्ति इस् इस् अस्ति
ओके भवतः ओके भवतः पत्नी कुत्र अस्ति
मम पत्नी अत्र अस्ति
तत्र अस्ति पुनः
मम पत्नी तत्र अस्ति
सा का
सा वैद्या
उत्तमम् इदानीं रमोश् रमेश् महोदय कृपया शिवस्य वचनं पठतु महोदय थेङ्क् यू हिन्दीभाषायां यत्किमपि वदामः तदेव वदामः धन्यवादः
धन्यवादः
पुनः पुनर्मिलामः पुनर्मिलामः
अहं पुनः मिलामः
पुनर्मिलामः उत्तमम् धन्यवादः एकं निमिषम् ओ रम्या भगिनी क्लेशम् अनुभवति इति मन्ये चिन्ता मास्तु भगिनी शृणोतु अन्ये सर्वे कृपया म्यूट् मध्ये तिष्ठन्तु सर्वे धन्यवादः अग्रे पुनः कानिचन वाक्यानि सन्ति एकैकं वाक्यं शोभनाद्य आदित्यमहोदय प्रथमं वाक्यम् अनुवादं करोतु कृपया
एषः मम लेखनी नास्ति
एषः किमर्थम्
this no it sorry it is etat mama lekhani nasti
lekhani kasmin linge punah
female
kimartham etat eshah
no etat nas it is एषा एषा मम लेखनी नास्ति
लेखनी नास्ति
मम लेखनी कुत्र अस्ति
मम लेखनी कुत्र अस्ति युवर् पेन् इस् हियर् तदपि पठतु
तव लेखनी अत्र अस्ति
भवतः लेखनी
भवतः लेखनी अत्र अस्ति
भवतः युवर् सो रिमेम्बर् डोण्ट् गेट् कन्फ्यूस्ड् वित् दट्स् वाट् ऐ कीप् रिपीटिङ्ग् द अदर् डे आल्सो ऐ पुट् इट् आन् द स्लैड् अण्ड् शोड् इट् टु यू अट् द एण्ड् आफ् दि लेसन् सो इट् इस् भवतः इस् पोसेसिव् केस् युवर् मम अगेन् मैन् पोसेसिव् केस् मम पुस्तकं मम लेखनी भवतः पुस्तकं भवत्याः पुस्तकं वेन् इट् कम्स् टु स्त्रीलिङ्गे इट् बि भवत्याः पुल्लिङ्गे भवतः डोण्ट् गेट् मिक्स्ड् अप् वित् भवान् भवती अहम् ऐ ऐ इस् अहं मम इस् मै रिमेम्बर् लैक् दट् मैन् मम mine and that bhavata first lesson that's the first lesson we learned bhavatah bhavatyah mama your mine or mine and then in the last lesson we learned bhavan bhavati aham you I you and I so again irrespective this is little bit different from english in english we don't have gender difference if you say you depending on whomsoever you are addressing it depends on the gender that's it If it is a female, you will say you, and if it is a man, you will be saying you only. There is no gender difference over there. But in Sanskrit, we have gender difference depending on whomsoever you are talking to or whomsoever you are addressing. So depending on a female, if you want to say you, it will be Bhavati. And then for man, it will be Bhavan. I, Aham. Hindi Bhashayam, Main. Main Hoon. But when it comes to Mama, Hindi Bhashayam, Mera Naam. It will become Mera Naam. Aapka Naam, Mera Naam. Like that, it will change. Same way. Okay? Little bit compare with, see some of the Indian languages in Tamil Bhasha, it will be you. There is no difference, there is no linga bheda or gender difference over there, like English. If you say neengal, it can be a man or a woman.
Yes.
Yes. Yeah. But in Sanskrit, there is little bit difference, okay? Ramesh Mahodaya, Agre Patatu Dvitiyam Vakyam Patatu Mahodaya.
Is this your book?
ये आपका शैली है क्या?
एषः स्यूतः वा?
Is this your bag?
अच्छा एषः भवतः बैग वा? भवतः स्यूतः वा?
उत्तमं महोदय. एषः भवतः स्यूतः किम् अथवा स्यूतः वा? स्त्रीलिङ्गे महोदय.
एषा 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 भवत्याः स्यूतः किम्?
एषा न महोदय, तत्र बिकास् इट् इस् बेग् ओन्ली, सो द जेण्डर् फार् बेग् डस् नाट् चेञ्ज्. एषः भवत्याः स्यूतः वा?
भवत्याः स्यूतः वा? आम् एषा मम बेग्.
So how do you say mama bag?
Mama syutah.
Mama syutah. Eshah.
Eshah mama syutah.
Aam. Eshah mama syutah. Uttama. Agre Krishnan Mahodaya Kripaya Patadu Tritiyam Vakyam.
Mama syutah kutra asti.
Your bag is there. Sampurna vakyam vadatu.
Your bag is there.
What will you put for your?
Bhavatyah syutah.
भवत्याः अथवा भवतः डिपेण्डिङ्ग् आन् तत्र अस्ति. दट् इस् नाट् मै बेग्.
न, मम स्यूतः न.
नो, दट् इस् नाट् मै बेग्. हौ विल् यु से दट् बेग्? बेग् इस् आल्रेडि इन् पुल्लिङ्गे. So what is the word for that in Pullinga?
Tat. In Pullinga, that's okay.
Tat is Napunsakalinge.
Saha.
Saha.
Saha Syutaha Mama Na.
Saha Mama Syutaha Nasti.
Nasti.
Saha Mama Syutaha Nasti.
Nasti.
उत्तमं महोदय. अग्रे जयन्ती लक्ष्मी भगिनि पञ्चमं वाक्यं पठतु भगिनि. नमस्ते शारदा भगिनि.
नमस्ते मे.
नमस्ते भगिनि.
बुक् पुस्तकं
Where is your book?
Where? पुस्तकं
Where is your book? Your book. Punah, your. So what will you use for your?
Bhavatah or bhavatah.
Atava bhavatyah.
Bhavatyah. Kutra bhavatah pustakam?
Yes.
Mama, kim?
No. भवतः पुस्तकम् अथवा भवत्याः पुस्तकं कुत्र अस्ति
कुत्र अस्ति
मम पुस्तकं कुत्र अस्ति अथवा भवत्याः पुस्तकं कुत्र अस्ति
मम पुस्तकं मम पुस्तकम् अन्यत्र अस्ति
अन्यत्र अस्ति अग्रे रम्या भगिनी अग्रिम अग्रिमवाक्यं पठतु कृपया डू यू स्टिल् हेव् डिफिकल्टि वित् युर् आडियो भगिनी अस्तु अग्रे सुकन्या भगिनी पठतु चिन्ता मास्तु पठतु भगिनि पञ्चमवाक्यं पठतु सुकन्या भगिनी
एषः मम वस्त्रं वा शर्ट् फर् शर्ट्
न न इस् मै शर्ट् देर् ऐ एम् नाट् आस्किङ्ग् वेदर् दिस् इस् मै शर्ट् इस् मै शर्ट् देर् शर्ट्
स्यूतकं
शर्ट् स्यूतकं
मम स्यूतकम् अत्र अस्ति वा
तत्र अस्ति वा तत्र अस्ति वा मम युतकं तत्र अस्ति वा
मम युतकं तत्र अस्ति वा
अथवा
न
मम युतकं तत्र अस्ति किं वा ओर् किम्
न भवतः युतकम् अत्र नास्ति
अत्र नास्ति अथवा भवत्याः युतकम् अत्र नास्ति इट् केन् बि भवतः आर् भवत्याः धन्यवादः भगिनि कृपया म्यूट् करोतु भगिनि अस्तु अग्रे सिक्स्थ् सेण्टेन्स् शारदा भगिनी Where is your mother? Is she there?
Bhavatah janani kutra asti. Is she there?
Sa? सा तत्र अस्ति किम् अथवा सा तत्र अस्ति वा
न शी इस् नाट् हियर्
सा
अत्र
अत्र नास्ति अग्रे पुनः शोभनादित्यमहोदय पठतु
सः वृक्षः
न द ट्री इस् देर् इट्स् नाट् दट् इस् द ट्री द ट्री इस् देर्
वृक्षः अत्र अस्ति वा
नो इट् इस् जस्ट् अ सेण्टेन्स् इट्स् नाट् अ क्वश्चन् द ट्री इस् देर् दट्स्
वृक्षः अस्ति अत्र अस्ति
देर्
तत्र अस्ति
वृक्षः तत्र अस्ति
That slide got off.
Slide is off?
Yeah.
You're not able to see?
No. Now it's come. It's come.
Pushpam
atra asti.
Vrikshaha tatra asti. Pushpam atra asti. Agre Ramesh Mahodaya. अष्टमं वाक्यं पठतु महोदय.
जनकः अत्र अस्ति. पुत्रः पुत्रः नास्ति. पुत्रः पुत्रः अत्र नास्ति.
पुत्रः अत्र नास्ति. उत्तमम्. कृष्णन् महोदय अग्रिमवाक्यं करोतु महोदय.
जनकः
नवमं.
अध्यापकः अत्र अस्ति. विद्यार्थी
छात्रः नास्ति. अध्यापकः अस्ति. छात्रः नास्ति. अन्तिमवाक्यमस्ति. वाहनम् अस्ति. इन्धनतैलं नास्ति. वाहनम् अस्ति. इन्धनतैलं नास्ति इत्युक्ते किम्? इन्धनतैलम् इत्युक्ते फ्यूवल्. इन्धन इस् फ्यूवल्, तैलम् इस् आयिल्. ओके. इन्धनतैलं फ्यूवल्. वाहनम् अस्ति. इन्धनतैलं नास्ति. कः वदति? प्रयत्नं करोति वा? न श्रूयते भगिनि. ऐ एम् नाट् एबल् टु हियर् यू. केन् एनि वन् आफ् यू ट्रै? वाट् इस् द मीनिङ्ग् आफ् दट् वाहनम् अस्ति.
वेहिकल् इस् हियर्. फ्यूयल् इस् नाट् देर्.
वेहिकल् इस् देर् बट् फ्यूयल् इस् नाट् देर्.
वेहिकल्
उत्तमं. इदानीम् अन्यम् एकं प्रहेलिका प्रहेलिकां पठामः. एकं निमिषम्. अस्तु. अस्तु. स्टिल् मेनी आफ् यू आर् हेविङ्ग् कन्फ्यूशन् वित् भवतः, भवत्याः, भवान्, भवती, अहं, मम. ओके. पुनः पुनः अभ्यासं कुर्वन्तु सर्वे. सो यु विल् गेट् इट् एस् यु प्राक्टिस्. यु विल् गेट् इट्. डोण्ट् इवन् वरि अबौट् इट्. जस्ट् फ्यू क्लासस् आफ् गान्. सो द मोर् यु प्राक्टिस् यु विल् गेट् यु विल् बिकम् फेमिलियर् वित् द वर्ड्स्. ओके. बट् रिपीटेड् प्राक्टिस् इस् रिक्वैर्ड्. Otherwise, it will be difficult. As you proceed to next step and next lesson, if you do not have good foundation, then it will become very difficult. And you will get stuck with just Eshaha, Saha, and then you will be mixing up everything. Eshaha, Eshaha. See, the only thing concept is, just go through the pictures and make familiar with the gender. That is important. Whatever you have in the Abhyasa Pustakam, for time being, you make familiar with those things. Don't get into too many things. As you study, you can learn new words, and you can learn the gender also. So don't worry about it. So anything ending with A is Strilinga, Aha is Pullinga, Am is Napunsakalinga for time being. just for as of right now, with the Abhyasa Pustakam, you will learn it that way. And so immediately you should be able to change the pronoun also. When you are talking about a bag, it is Syutaha. Syutaha Pullinge Asti. Tadartham, automatically the pronoun will also change to He. So Yeshaha, or else it will become Saha. So when you are talking about Putri or Lekani, automatically it should change to Yesha, Sa. And then you are mixing with Atra Tatra also. Atra Tatra is just Atra Tatra, that's it. That doesn't have any Linga Beda over there. Only the object changes over there. So Sa Tatra Asti, Yesha Atra Asti, that's it. Okay? So practice with Abhyasa Pustakam again and again, repeatedly. Just two sentences every day, or go through whatever you have learned, whatever is in the Abhyasa Pustakam itself, you can practice it repeatedly. That will help you a lot. Astu, we will learn one riddle, Prahelika. Drushyateva, are you able to see?
Not it. Not it.
No.
Yes.
इदानीं शारदा भगिनी कृपया पठतु प्रहेलिकां पठतु
अस्ति नास्ति शिरो नास्ति बाहुरस्ति निरङ्गुलिः नास्ति पादद्वयं माधम् अङ्गमालिङ्गति स्वयम्
अङ्गमालिङ्गति धन्यवादः भगिनि. अस्तु सर्वे कृपया म्यूट् कुरु सर्वे कृपया म्यूट् कुरु. धन्यवादः. अस्ति नास्ति शिरो नास्ति बाहुरस्ति निरङ्गुलिः नास्ति पादद्वयं गाढम् अङ्गमालिङ्गति स्वयम्. सो अगेन् डोण्ट् गेट् मिक्स्ड् अप् वित् दिस् अस्थि. दिस् इस् अस्थि. द अस्थि दट् वि आर् लर्निङ्ग् इस् जस्ट् अस्थि. इट् इस् नाट् महाप्राणाथ, बट् दिस् वन् इस् महाप्राणाथ. अस्थि नास्ति. अस्थि इत्युक्ते पठामः. अस्थि नास्ति, शिरः नास्ति. अस्ति नास्ति, देर् इस् समथिङ्ग् इस् नाट् देर्. शिरः नास्ति. बाहुः अस्ति. निर् अङ्गुलिः. अङ्गुलि इत्युक्ते अङ्गुलिमाल् इति एका कथामस्ति, जानाति वा? अङ्गुलिः. नास्ति पादद्वयं गाढम् अङ्गम् आलिङ्गति स्वयम्. पश्यामः अग्रे. इदानीम् अस्थि नास्ति. अस्थि इत्युक्ते बोन्. अस्थि अस्थि नास्ति. अनन्तरं शिरः नास्ति. बाहुः अस्ति. बाहुः अस्ति. निर् अङ्गुलिः. निर् अङ्गुलिः इत्युक्ते अङ्गुलि नास्ति इति अर्थम्. अङ्गुलि अर्थः अङ्गुलि नास्ति. निर् अङ्गुलिः. पादद्वयं नास्ति. पादद्वयं, देर् इस् नो फीट्. देर् आर् नो फीट्. पादद्वयं नास्ति. निर् अङ्गुलिः इत्युक्ते अङ्गुल्यः नास्ति, न सन्ति. अङ्गुल्यः न सन्ति. अनन्तरं बाहुः नास्ति. शिरः नास्ति. बाहुः अस्ति, क्षम्यतां, बाहुः अस्ति. अङ्गुलिः नास्ति. अस्ति नास्ति, देर् इस् नो बोन्. अग्रे पश्यामः. आलिङ्गनम्, गाढं गाढम् आलिङ्गति. गाढम् इत्युक्ते टैट्, आलिङ्गनम् इत्युक्ते हगिङ्ग्. गाढम् आलिङ्गति स्वयं. तत् किम् इति पश्यामः. प्रहेलिकायाः उत्तरं शर्ट्.
युतकं.
युतकम्. अवगतम्? इदानीं चिन्तयतु, डस् अ शर्ट् हाव् बोन्? नो. अस्ति नास्ति, शिरः नास्ति, बाहुः अस्ति. इट् हेस् आर्म्. निर् अङ्गुलिः, नो फिङ्गर्. अनन्तरं पादद्वयं नास्ति, इट् डजन्ट् हेव् फुट्. अण्ड् देन् बट् इट् हग्स् यू टैट्लि. वाट् इस् इट्? युतकम्. सो ऐ जस्ट् पुट् दिस् रिडल् जस्ट् फार् यू टु लर्न् अस्ति नास्ति, यूसिङ्ग् अस्ति नास्ति. अस्तु, अग्रे एतावत्पर्यन्तं वयं भवतः, भवत्याः, मम पठितवन्तः. दट् इस् जस्ट् मै युवर्. अण्ड् देन् वि लर्न्ड् सः, एषः, सा, एषा. नौ इफ् यु वाण्ट् टु नो द पोसेसिव् केस् आफ् दट् पर्सन् हूवर् इस् स्टाण्डिङ्ग् फार् and whoever is standing close by, how will you say that? For example, eshaha mama putraha. If I say eshaha mama putraha, what is it? What is the meaning of that? Eshaha mama putraha.
This is my son.
So now you want to introduce him by his name. His name is, this is my son, his name is Rama. How will you do that? How will you say that? So we are going to learn the possessive form of that is the Sanskrit words for his, her. So etasya nama, etasya nama Ramah. Punaha just eshaha becomes etasya nama. This is my son, eshaha mama putraha, etasya nama Ramah. Etasya, his name is Rama, अथवा एतस्य नाम कृष्णः. सो दट् इस् मै सन्, हिस् नेम् इस् कृष्णा. सो इफ् यु वाण्ट् टु से दट् इस् मै सन्, हिस् नेम् इस् कृष्णा, हौ विल् ऐ से? सः मम पुत्रः. दट् इस् मै सन्, सः मम पुत्रः, हिस् नेम् इस् कृष्णा, तस्य नाम कृष्णः. So that A in the beginning drops off when the object is far off. So A tasya nama, tasya nama, pullinge. Sarve dhyatva shrunvantu, sarve. A tasya, eshaha, A tasya, saha, tasya. This, his. This is my son, his name is Rama. That is my son, his name is Krishna. Saha mama putraha, tasya nama Krishnaha. Etasya rama ramaha, etasya nama ramaha, tasya nama Krishnaha. Avagatam? Etasya, tasya, his. Nearby, samipe, dure. Samipe, etasya, to say his. एतस्य, दूरे तस्य. एवं स्त्रीलिङ्गे this is my daughter, her name is Mala. Chintayatu. This is my daughter, her name is Mala. Esha mama putri. Esha mama putri. Etasyaha nama. Etasyaha nama. Atra. See, when it is just Esha, this is, there is no visarga. But when it comes to possessive form, we will have visarga for that. Etasyaha. Etasya pullinge. Etasyaha strilinge. So it changes. So etasya doesn't have visarga. But here, strilinga has visarga here. Etasya nama ramaha. Etasyaha nama lata mala kimapi bhavatu. Sa mama putri. That is my daughter. Tasyaha nama Rama. Tasyaha. Etasyaha tasyaha. Sarve smarantu atra etasyaha iti strilinge visargaha bhavishyati. Pullinge visargaha nasti. Kevalam etasya nama tasya nama. Etasya tasya eva. Etasyaha na tasyaha api na. यद्यपि पुल्लिङ्गे अस्ति विसर्गः नास्ति तत्र केवलं स्त्रीलिङ्गे विसर्गः भविष्यति बट् वेन् इट् इस् दिस् देट् इट् इस् द अदर् वे रौण्ड् वेन् इट् इस् मास्कुलिन् जेण्डर् एषः सः इति तत्र विसर्गः अस्ति एषा सा तत्र विसर्गः नास्ति परन्तु वेन् इट् कम्स् टु पोसेसिव् केस् सम्बन्धवाचक देन् Visargaha gets exchanged between feminine gender and masculine gender. It gets switches. So masculine gender does not have visarga, etasya, tasya only. But feminine gender has visargaha, etasyaha. But that a, dirga akarantam will be there. Etasyaha nama mala, etasyaha nama sita, etasyaha nama lata. तस्याः नाम सीता तस्याः नाम गीता तस्याः नाम माला किमपि भवतु अवगतम् नपुंसकलिङ्गे भेदः नास्ति यथा पुल्लिङ्गे भविष्यति तथैव नपुंसकलिङ्गे अपि भविष्यति उदाहरणार्थम् एतत् पुस्तकमस्ति एतत् पुस्तकमस्ति एतस्य नाम अभ्यासपुस्तकम् एतस्य नाम अभ्यासपुस्तकम् एतस्य लैक् मास्कुलिन् जेण्डर् दिस् इस् आल्सो द सेम् सिमिलर् टु सेम् एस् मास्कुलिन् जेण्डर् एतस्य नाम एतस्य नाम अनन्तरं तस्य नाम सेम् वे अस् वि से पुल्लिङ्गा It will be the same thing for neuter gender. Etasya, tasya. Atava, pustakasya nama. Pustakam asti, pustakasya nama, abhyasa pustakam. Etasya nama, abhyasa pustakam. Etasya, tasya. Avagatam va, prashna kasanti va, asmin vishaye? Any doubt?
Once more, you please tell about the neutral form.
एतत् पुस्तकम् एतत् पुस्तकम् एतस्य नाम अभ्यासपुस्तकम् एतस्य नाम द नेम् आफ् द बुक् एतस्य नाम अभ्यासपुस्तकं द नेम् आफ् दिस् थिङ्ग् इस् अभ्यासपुस्तकम् अनन्तरं अकारान्त पुनः पठामः किञ्चित् स्लैड्स् दर्शयामि चित्रं दर्शयित्वा पाठयामि अवगमने किञ्चित् क्लेशः अस्ति एकं निमिषम् अस्तु स्त्रीलिङ्गवचनं समीपे एतस्याः नाम सरस्वती तस्याः नाम लक्ष्मी एतस्याः नाम सरस्वती तस्याः नाम लक्ष्मीः एतस्याः समीपे एतस्याः हर् नेम् इस् सरस्वती हर् नेम् इस् लक्ष्मी द पर्सन् हू स्टाण्डिङ्ग् फार् आफ् हर् नेम् इस् लक्ष्मीः हर् नेम् इस् सरस्वती एतस्याः तस्याः अग्रे एतस्याः नाम एम् एस् सुब्बलक्ष्मीः एतस्याः नाम एम् एस् सुब्बलक्ष्मीः तस्याः नाम मीरा मीराबायी अथवा एतस्याः नाम एम् एस् सुब्बलक्ष्मीः तस्याः नाम मीरा सो इन् द प्रीवियस् लेसन्स् we learned this is ms subbalakshmi that is meerabai esha ms subbalakshmi sa meerabai this that but here we are learning this etasyah nama her name is ms subbalakshmi her name is meerabai etasyah tasyah agre पुल्लिङ्गे इदानीम् एतस्य नाम शिवः शृण्वन्तु सर्वे ध्यात्वा अत्र विसर्गः नास्ति केवलम् एतस्य नाम शिवः तस्य नाम कृष्णः एतस्य नाम शिवः तस्य नाम कृष्णः विसर्गः नास्ति परन्तु वेन् यु लर्न् दिस् अण्ड् दट् दिस् इस् शिव हौ विल् वि से रमेश् महोदय वदतु कृपया दिस् इस् शिव शिव
एषा शिवः एषः शिव
एषः शिवः
शिवः
अनन्तरं दट् इस् कृष्ण
सः कृष्णः
इदानीं दिस् पर्सन्स् नेम् इस् शिव इफ् यु वाण्ट् टु से दट् हौ विल् यु से एतस्य नाम शिवः
एतस्य नाम शिवः
तस्य नाम कृष्णः
तस्य नाम कृष्णः
तस्य नाम कृष्णः एतस्य नाम शिवः
शिवः
धन्यवादः महोदय इदानीं कृष्णन् महोदय His name is Ganesha. That person's name is Narayana. This person's name is Ganesha. That person is Narayana. That person's name is Narayana.
Etasya nama Ganesha. Tasya nama Narayana.
Tasya nama Narayana. Uttama. Agre Jayanti Lakshmi Bagini. Jayanti Bagini.
एतस्य नाम विवेकानन्दः तस्य नाम तस्याः नाम लक्ष्मीबाई
राणी लक्ष्मीबाई
लक्ष्मीबाई
राणी लक्ष्मीबाई
राणी लक्ष्मीबाई
अग्रे जयरामन् महोदय
एतस्याः नाम मीराबाय् तस्य नाम गणेशः
उत्तमम्
धन्यवादः.
रम्या भगिनी, क्लेशः अस्ति वा इदानीमपि भवत्याः ध्वनिविषये?
भगिनी, ऐ एबल् टु हियर् मी?
श्रूयते भगिनि.
ओके.
एतस्य नाम
महाभारतः.
भारतम्
अस्य महाभारतं. तस्य नाम रामायणम्.
तस्य नाम रामायणम्. एतस्य तस्य इदानीम् एतस्य तस्य एतस्याः तस्याः पठितवन्तः. एवम् अकारान्तम् आरक्षकः आरक्षकस्य, वैद्यः वैद्यस्य, रामः रामस्य, बालकः बालकस्य. अस्तु, सो नौ वी विल् थिङ्क् अबौट् इमेजिन् अ बाय् स्टाण्डिङ्ग्. एषः बालकः इति जानीमः. सो इफ् यु वाण्ट् टु नो वाट् इस् बाय्स् नेम्, वाट् इस् द बाय्स् नेम्, इफ् यु वाण्ट् टु आस्क् बालकस्य नाम किम्, दट् इस् हौ वी विल् आस्क् बालकस्य नाम किम्. आरक्षकस्य नाम किम्? वैद्यस्य, वाट् इस् द नेम् आफ् द डाक्टर्? वैद्यस्य, वैद्यः वैद्यस्य, आरक्षकः आरक्षकस्य, वृद्धः वृद्धस्य, अनन्तरं रामः रामस्य, कृष्णः कृष्णस्य. सो आल् दीस् आर् पोसेसिव् केस् बिलाङ्गिङ्ग् टु समवन्. चिन्तयतु, लेट् अस् गिव् हिम् अ नेम् एस् शिवा. आरक्षकस्य नाम शिवः. एषः आरक्षकः, दिस् इस् अ पोलिस् मेन्. आरक्षकस्य नाम, द पोलिस् मेन्स् नेम् इस् शिवा. सः वैद्यः अथवा एषः वैद्यः. वैद्यस्य, दिस् इस् अ डाक्टर्. वैद्यस्य नाम सुब्रह्मण्यः. चिन्तयतु, वैद्यस्य नाम सुब्रह्मण्यः अथवा नारायणः, किमपि वदामः. वैद्यस्य नाम, वैद्यस्य मुखं, वैद्यस्य उपनेत्रं, वैद्यस्य युतकं, वैद्यस्य पादत्राणं. वैद्यस्य पादत्राणम्. आरक्षकस्य ऊरुकम्, आरक्षकस्य ऊरुकम्. आरक्षकस्य शिरस्त्रं, शिरस्त्रम् इत्युक्ते क्याप्. आरक्षकः अस्ति, आरक्षकस्य शिरस्त्रं, द पोलिस् मेन्स् क्याप्, अदर्वैस् द क्याप्, पोलिस् मेन्स् क्याप्. अनन्तरं आरक्षकस्य दण्डः, आरक्षकस्य दण्डः. आरक्षकस्य घटी, आरक्षकस्य स्यूतः. अग्रे क्षम्यताम्. एतस्य नाम विवेकानन्दः. एतस्य नाम विवेकानन्दः. एषः विवेकानन्दः अथवा एतस्य नाम विवेकानन्दः. विवेकानन्दस्य गुरुः कः वदतु? सुकन्या भगिनी वदति वा?
स्वामी विवेकानन्दस्य गुरुः रामकृष्णपरमहंसः.
उत्तमम्. रामकृष्णपरमहंसस्य शिष्यः कः?
रामकृष्णपरमहंसस्य शिष्यः विवेकानन्दः.
विवेकानन्दः, उत्तमम्. विवेकानन्दास् टीचर् वास् रामकृष्णपरमहंसा, अण्ड् देन् रामकृष्णपरमहंसास् स्टूडेण्ट् वास् विवेकानन्दः. रामः रामस्य धनुः रामः रामस्य धनुः रामस्य चापं रामस्य वस्त्रं रामस्य चापः रामस्य धनुः रामः रामस्य क्रीडकः क्रीडकस्य एषः क्रीडकः क्रीडकस्य नाम नडालः The name of the player is Nadal. Kreedakasya nama Nadalaha. That is why I have highlighted. Eshaha Kreedakaha. This is a sportsman. He is a sportsman. His name is Nadalaha. So if you want to say his name is, then it will be Etasya. Eshaha Kreedakaha. Etasya nama Nadalaha. Kreedakasya nama. The name of the sportsman is Kreedakasya नाम नडालः तस्य नाम विश्वनाथ आनन्दः तस्य नाम विश्वनाथ आनन्दः आनन्दः His name is विश्वनाथ आनन्द अग्रे फलं फलं नपुंसकलिङ्गे एतत् फलं तत् पुष्पं वयं सर्वे जानीमः परन्तु फलस्य नाम द नेम् आफ् द फ्रूट् फलं फलस्य नाम आम्रं फलस्य नाम आम्रं पुष्पं पुष्पस्य नाम कमलं पुष्पं पुष्पस्य नाम कमलं एवं पुस्तकं पुस्तकस्य पुस्तकम् एतत् पुस्तकम् एतत्
पुस्तकं देयर इज अ टाइम गैप बिटवीन द स्लाइड्स
पुनः वदतु महोदय
स्लाइड ऑफ नडाल एंड विश्वनाथन आनंद इज स्टिल देयर वी आर नॉट आई एम नॉट एबल टू गेट टू द फ्रूट
व्हाट अबाउट अदर्स आर यू एबल टू सी
Yes, the slide has not changed.
Yes, slide ra. Pustakasya nama ra.
So, others are... Refresh your... just move your cursor or... refresh it a little bit. Maybe move your cursor. You should be able to see it. Is this the same condition with all?
Slide 11 is on.
We can see.
See, others are able to see. Yeah, it is something to do with your device. You have to, I think, you have to move your cursor or refresh it a little bit.
Okay. Okay.
Okay. Pustakam, etat pustakam, saha balakaha. Etat pustakam, saha balakaha. Pustakasya nama Ramayanam. पुस्तकस्य नाम रामायणं द नेम् आफ् द बुक् इस् रामायण बालकः एषः बालकः बालकस्य नाम हरिः नेम् आफ् द बाय् इस् हरि आफ् सो एव्रिथिङ्ग् बालकस्य युतकं बालकस्य ऊरुकं बालकस्य वस्त्रम् बालकस्य पादत्राणं बालकस्य मुखं बालकस्य केशः बालकस्य हस्तः एवं वृद्धः एषः वृद्धः वयं सर्वे जानीमः This is a old man. But if you want to say something belonging to this old man, then it becomes Vriddhaha becomes Vriddhasya. Vriddhasya nama Sadashivaha. Mandiram. Eva meva. Mandiram. Mandirasya nama Shiva Mandiram. Mandiram asti. Mandirasya nama नामं न क्षम्यतां मन्दिरस्य नाम शिवमन्दिरं मन्दिरं नपुंसकलिङ्गे देवालयः पुल्लिङ्गे देवालयस्य नाम शिवदेवालयः देवालयस्य नाम शिवदेवालयः मन्दिरस्य नाम शिवमन्दिरम् इदानीम् एतावत्पर्यन्तं पुल्लिङ्गपदानि पठितवन्तः इदानीं स्त्रीलिङ्गपदानि आकारान्तपदानि बालिका बालिकायाः एषा बालिका बालिकायाः नाम वी केन् गिव् सम् नेम् बालिकायाः नाम रमा बालिकायाः नाम सीता बालिकायाः वस्त्रं बालिकायाः केशः बालिकायाः मुखं बालिकायाः पादत्राणं बालिका बालिकायाः सो इट्स् द अदर् वे राउण्ड् सो इन् दिस् दट् केस् एस् ऐ कीप् रिपीटिङ्ग् इन् वेन् वी आर् लर्निङ्ग् दिस् इस् अ गर्ल् दट् इस् अ बाय् इट् विल् बि एषा बालिका सः बालकः सो इन् दट् केस् आल् द मास्कुलिन् जेण्डर् हेड् विसर्ग feminine gender did not have any visarga in that case when we were learning this and that but in this possessive cases it is the other way around masculine gender does not have visarga but feminine gender has visarga everywhere if you look at it balika balikayah vriddha vriddayah So anything belonging to this old lady will be Vriddhayah. So for instance, if we give a name to this lady, Vriddhayah nama Sheela, Mala, Kimapi Padamaha. Vriddhayah Dandaha, Vriddhayah Syutaha. That is, the bag belongs to this old lady. Vriddhayah Upanetram, Vriddhayah Vastram. वृद्धायाः माला वृद्धायाः मुखं वृद्धायाः वेणी वेणी इत्युक्ते केशः पादत्राणं सो एनिथिङ्ग् बिलाङ्गिङ्ग् टु दिस् ओल्ड् लेडी वृद्धायाः वृद्धायाः यु हाव् टु से आह अग्रे पुनः अध्यापिका अध्यापिकायाः अध्यापिका अध्यापिकायाः वैद्या वैद्यायाः वैद्या वैद्यायाः सो इन् स्त्रीलिङ्गपदं वि हाव् दीर्घ अकारान्तं दट् इस् आ एण्ड् ई वि आर् लर्निङ्ग् एस् आफ् रैट् नौ एव्रिथिङ्ग् एण्डिङ्ग् इन् आ एण्ड् ई वि आर् लर्निङ्ग् सो एतावत्पर्यन्तं We learnt how it changes when it comes to possessive case when it is akarantam, strilinga padam. Adhyapika, adhyapikayah, vaidya, vaidyayah, evam balika, balikayah, vriddha, vriddayah. So these are all akaranta padam. Now coming to ekaranta padam, strilinga padam, How it changes in the possessive case. Yuvatyah. Yuvati. Esha yuvati. Yuvatyah. So what will happen is the last letter, yuvati, the long T. So in this case it is long T. T. That will become it. You should not spell it fully. Yuvatayana, yuvat, yuvatyaha, it will become. Yuvati becomes yuvatyaha when it comes to ikaranta. Evam, if you look at it, nartaki, nartaki, nartakyaha. The ki becomes ik. and then you have to add one yah in the end. Nartaki, nartakyah, nartakyah nama Padma Subramanyam. Yuvati, yuvatyah nama Rita. Agre. Lekhani, all of you notice this, that is why I am showing this. These are all words ending in ikaranta padam strilingam. Lekhani, lekhanyah, that ni becomes in the end and one yah should be added. Lekhani, lekhanyah, lekhanyah varnah, rakta varnah, rakta varnah. Duravani, duravanyah, duravanyah varnah, neelah. Duravani, duravanyah. Evam, gati, gatyah. Droni, dronyah, dronyah varnah, harita varnah. Gatyah varnah, krishna varnah. Ankani, ankanyah, ankani, ankanyah. Anguli, that li becomes il, angulyah. Avagatam, prashna kasantiva? Idanim, ka, who did not get a turn? Astu, punaha, Sharada bhagini.
Murali
Nana Atra Arabhya Patatu Krishna hai.
Krishna Krishnasya Murali
Krishna hai, Krishnasya Esha hai Krishna hai. This is Krishna. So
Krishna
now we are going to learn all the belongings or whatever is that belongs to whatever thing that belongs to Krishna here now. Krishna, Krishnasya. Krishnasya Murali. Punaha.
Esha Krishnaha. Krishnasya Murali. Krishnasya Barha.
Barha. Barha hai. Peacock feather.
Krishnasya mukham. Krishnasya vadanam. Krishnasya mala. Krishnasya adharaha. Krishnasya varnaha. Krishnasya nayanam. Krishnasya netram.
Krishna. Krishnaha. Krishnasya. Danyavadaha bhagini. Uttamam. Agre. Shobhanaditya Mahodaya. Eshaka. Eshaka.
Esha Lekhani.
Nana. Eshaka. Drushyateva.
Esha.
The old slides are there.
It's not coming. 21st.
It's not coming. Why? Krishna. Everybody is having the same issue? Everybody is... Others are able to see?
Yes.
How many of you are not able to see the slide?
No,
I think your device is slow, Mahodaya. I guess your device is slow.
Wi-Fi must be slow.
That is why. Your speed is because of the speed. Yes. So, who else is able to see the picture? Slide here.
Slide, I am able to see Krishna's
slide. Oh, so you are one slide behind them. Yes, it is slow. Okay, no problem. Yes. Who else is there? Who can see this one?
I can see.
Ka vadati?
Ramya.
Ramya bhagini, vadatu bhagini. Esha ka?
Esha vriddha.
Esha vriddha. Vriddhayah nama kim?
Vriddhayah nama Vimala.
Vimala. Astu. Idani vadatu.
Vimalayah veni. Vimalayah upanetram. Vimalayah mala. विमलायाः स्यूतः, विमलायाः वस्त्रं, विमलायाः पादत्राणं, विमलायाः दण्डः.
विमलायाः, विमला विमलायाः, वृद्धा वृद्धायाः. All these things belong to this old lady whose name is Vimala. Agree. So now who else is able to see this slide now other than Sukanya Bhaini?
I can.
Jera Mahodaya drishyate va?
Sukanya.
Who else is there?
Sukanya here.
अस्तु का पठितवती? Who read the previous one?
That was me, Ramya.
अस्तु सुकन्या भगिनी पठतु. एतत् किं?
कार्यानः.
कार्यानः न, यानः न,
कार्यानः.
कार्यानं न्यूकार्यानं. कार्यानम्. एतत् किम्? अहं किं पृष्टवती? एतत् किम् इति. एतत्
कार्यानम्.
कार्यानम्, कार्यानस्य.
कार्यानस्य नाम होण्डा. कार्यानस्य वर्णः नीलः. कार्यानस्य चक्रं,
चक्रं,
चक्रं. कार्यानस्य
मूल्यं,
मूल्यं,
मूल्यम् इत्युक्ते वेल्यू. कार्यानस्य मूल्यं,
मूल्यं
35,000. अस्तु. सो हू एल्स् इस् एबल् टु सी आल्? आर् आल् आफ् यू एबल् टु सी द पिक्चर् हियर् नौ?
यस्,
यस्,
सर्वैः दृश्यते वा? उत्तमम्. So here is the family portrait of Parvati and Shiva. So using this picture we are going to form sentences. Udaharanartham aham ekam vakyam vadami. Shivah asti. Shivasya putraha Kartikeyah. Shivah Shivasya putraha कार्तिकेयः, शिवस्य पत्नी. अनन्तरं वेन् इट् कम्स् टु पार्वती, वाट् विल् बि द पोसेसिव् केस् फार् पार्वती? केन् वन् आफ् यू टेल् मी? पार्वत्याः. उत्तमं. पार्वती, पार्वत्याः. इदानीम् एकमेकं वाक्यं वदतु, चित्रं दृष्ट्वा एकमेकं वाक्यं वदतु. शोभनादित्यमहोदय आरम्भं करोतु कृपया.
एषः शिवः. एषः पत्नी पार्वती.
एषः न,
एतस्य पत्नी पार्वती.
एतस्य पत्नी पार्वती अथवा शिवस्य पत्नी पार्वती. उत्तमम्. अग्रे रमेश महोदय. रमेश महोदय अस्ति वा? अस्तु. अग्रे कृष्णन् महोदय वदतु.
एषः शिवः, शिवस्य पुत्रः कार्तिकेयः.
अन्यम् एकं वाक्यं वदतु महोदय.
एषा पार्वती, पार्वत्यस्य पुत्रः.
न न न, पार्वत्यस्य न न न,
सोरि,
उक्तवती स्त्रीलिङ्गे.
स्याः. ओके ओके. पार्वत्या, पार्वत्,
पार्वत्यस्याः. न न न, पार्वत्यस्याः न स्य तत्र. चिन्तयतु. विमला विमलायाः, वृद्धा वृद्धायाः.
पार्वत्याः पुत्रः गणेशः.
पार्वती पार्वत्याः पुत्रः गणेशः. उत्तमं. पार्वत्याः पतिः शिवः. शिवस्य पत्नी पार्वती. पार्वत्याः पतिः शिवः. पार्वती पार्वत्याः. पार्वत्याः पुत्रः गणेशः. पार्वत्याः पुत्रः कार्तिकेयः. शिवस्य पुत्रः कार्तिकेयः. शिवस्य पुत्रः गणेशः. अग्रे जयन्ती, जयन्ती भगिनी.
एषः शिवः. एषस्य पुत्राः
एषस्य भगिनी
एषस्य
नो नो एषस्य
शिवस्य शिवस्य पुत्रः गणेशः.
अस्तु. नो एषस्य, डोण्ट् गेट् मिक्स्ड् वित् एषस्य. इट् इस् एतस्य, नो एषस्य. तत्र
शिवस्य पुत्रः गणेशः.
अस्तु, दट् इस् ओके. नौ थिङ्क् द अदर् वे रौण्ड्. We learnt all the probabilities and the combination. Okay. Saying that Shiva's son, Parvati's son. None, think the other way round.
Ganeshasya Jananaha.
Janakaha.
Janakaha. Shiva, Shivaha.
Ganeshasya Janakaha Shivaha.
Kartike.
Jayaraman Mahodaya. जयरामन् महोदय अस्ति वा? अस्तु. रम्या भगिनी.
कार्तिकेयस्य जननी पार्वती.
उत्तमं. कार्तिकेयस्य जननी पार्वती. अग्रे सुकन्या भगिनी एकं वाक्यं वदतु. बहूनि वाहनानि सन्ति, सर्वेषां वाहनानि सन्ति अत्र, वदतु.
पार्वत्याः पतिः शिवः.
वाहनम् अस्ति खलु, वाहनम् उपयुज्य वदतु.
शिवस्य वाहनं नन्दी.
शिवस्य वाहनं नन्दी. वृषभः. सुकन्या भगिनी.
आम्. शिवस्य
अग्रे शारदा भगिनी वदतु.
गणेशस्य, ओ
गणेशस्य वाहनं मूषकः.
मूषकः.
शारदा भगिनी वदतु.
सुब्रह्मण्यस्य वाहनं पीकॉक्.
मयूरः.
मयूरः. सुब्रह्मण्यस्य वाहनं मयूरः.
शिवस्य जटा. शिवस्य जटा. शिवस्य वस्त्रं. पार्वत्याः वस्त्रं. पार्वत्याः माला. शिवस्य माला सर्पः. शिवस्य कण्ठः. शिवस्य माला. उत्तमम्. अग्रे किम् अस्ति? दिस् इस् समरी आफ् वाट् वी लर्न्ड्. एतस्य, तस्य, प्रश्नवाचकं भविष्यति कस्य. सो आल् द क्वश्चन्स् विल् बिगिन् वित् कस्य. स्त्रीलिङ्गे एतस्याः, तस्याः, कस्याः. कस्याः पुत्रः गणेशः प्रश्नवाचकं भविष्यति. कस्य पुत्रः कार्तिकेयः शिवस्य पुत्रः कार्तिकेयः. कस्य पुत्र गणेशः शिवस्य पुत्रः गणेशः. कस्य जनकः शिवः गणेशस्य जनकः शिवः. कस्य जनकः शिवः पुनः कार्तिकेयस्य जनकः शिवः. अनन्तरं कस्याः पुत्रः गणेशः पार्वत्याः पुत्रः गणेशः. कस्याः पुत्रः कार्तिकेयः? पार्वत्याः पुत्रः कार्तिकेयः. पुनः कस्य वाहनं नन्दी? शिवस्य वाहनं नन्दी. एवं कस्य वाहनं मयूरः? कार्तिकेयस्य वाहनं मयूरः. कस्य वाहनं मूषकः? गणेशस्य वाहनं मूषकः. कस्याः पतिः शिवः? पार्वत्याः पतिः शिवः. एवं नपुंसके एतस्य, तस्य, तत्र अपि प्रश्नवाचकः कस्य, भेदः नास्ति. पुल्लिङ्गे नपुंसकलिङ्गे भेदः नास्ति. तेषां तयोः मध्ये भेदः नास्ति. And remember, when it comes to Strilinga, in possessive case, it's always with Visarga. Aha, aha, iti bhavishyati. Prashnavachaka api kasyaha iti bhavishyati. Astu. Chintitavati adhya kinchit ekam katam patama iti chintitavati. अग्रिमसप्ताहे एकां कथां पठामः. प्रश्नाः सन्ति वा एतावत्पर्यन्तम्?
केन इति सा पार्वती तस्याः पुत्रः गणेशः.
यस्, इट्स् अब्सोल्युट्लि करेक्ट् हर्. सो यु आर् टाकिङ्ग् अबौट् समन् हू इस् स्टाण्डिङ्ग् फार् आफ् अण्ड् यु आर् टाकिङ्ग् अबौट् दट् लेडी हू ओवर् इस् फार् आफ़् Sa Parvati, that is Parvati, and her son's name is so-and-so. Uttam. Sadhuheva.
Parvataha Vahana Vyagraha.
Kim Mahodaya?
Parvatyaha Vahana Vyagraha. Or...
Simhaha. Simhaha. पार्वत्याः वाहनं सिंहः. वाहनं सर्वदा नपुंसके. ईवन् दो द वाहनम् इस् गोयिङ्ग् टु बी इन् पुल्लिङ्ग फार्म् दट् इस् ऋषभः, मयूरः, मूषकः, सिंहः, आल् दीस् आर् इन् पुल्लिङ्ग पदम्. परन्तु वाहनं सर्वदा सर्वदा नपुंसकलिङ्गे एव. But because of that, it is not going to change into Vahanaha. It is wrong. So it is, it should be always Vahanam Rishabaha, Vahanam Mayuraha, Vahanam Mushakaha. Tatra Bedaha Nasti. So in the Abhyasa Pustakam, there are a couple of exercises for you to practice with Rama, Lakshmana and Krishna. कृष्णस्य, कृष्णस्य अम्बा अथवा कृष्णस्य माता देवकी, देवक्याः पुत्रः कृष्णः. एवं कृष्णस्य अग्रजः, कृष्णस्य अनुजा, एवं बहूनि वाक्यानि सन्ति तत्र अभ्यासार्थं. सर्वे अभ्यासद्वयम् अस्ति इति मन्ये. अभ्यासं कृत्वा आगच्छन्तु. इफ् यु हेव् एनी क्वश्चन्स् रैट् इट् डौन् and we can talk about it in the next class again. And if you have any doubts, you can watch the slide also, recording, video recording, and then you can write it down. Abhyasa Pustakam, with Abhyasa Pustakam you can practice. Avagatam? Any question, any doubt, any question? Samapayamah va. अस्तु, मङ्गलश्लोकं वदतु कोऽपि कृपया. सर्वे भवन्तु सुखिनः. वदतु भगिनि.
सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिश्शान्तिश्शान्तिः. हरिः ओम् श्रीगुरुभ्यो नमः. हरिः ओम्.
धन्यवादः
धन्यवादः
धन्यवादः भगिनी
धन्यवादः